राम गीता जी का पाठ नवा अध्याय प्रारंभ से श्लोक 11 तक। राम
वसुदेव सुतं पंचजानुरमर्दनम् देवकी करमानन्दम् कृष्णं वन्दे जगद्गुरुम् प्रसन्नमुद्गार श्री भगवान वाच वेदान्तु ते गोह्यतमम् वक्ष्याम्यनसूयवे ज्ञानं विज्ञानसहितं यज्ञात्वा मोक्षसे शुभात् राजविद्या राजगुह्यं पवित्रमिदमोत्तमम् प्रत्यक्षावगमं धर्म्यम् सुखं कर्तुमव्ययम् अश्रद्धानः पुरुषा धर्मस्यास्य परन्तप अप्राप्य मामे वर्तन्ते मृत्यु संसारवात्मनि मया ततमिदं सर्वं व्यक्तमूर्तिना मस्तानि सर्वभूतानि न साहं ते स्ववस्थितः न च मस्तानि भूतानि पश्य मे योगमैश्वर भूतभिर्न च भूतस्तु ममात्मा भूतभावना यथाकाशस्थितो नित्यं वायुः सर्वत्र गोमः तथा सर्वाणि भूतानि मस्तानीत्युपधारय सर्वभूतानि कान्तेय प्रकृते यान्ति मामिकाम् कल्पक्षरे पुनस्तानि कल्पादौ विसृजाम्यहम् प्रकृतिं स्वामवस्तव्य विसृजामि पुनः पुनः भूतग्राममिमं कृष्ण मवशं प्रकृतेर्वशात् न च मां तानि कर्माणि निबध्नन्ति धनञ्जय तुरासीनवरासीनमसक्तं तेषु कर्मसु मयाध्यक्षेण प्रकृति श्रूयते सचराचरम् हेतुनानेन कौन्तेय जगद्धि परिवर्तते अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् परं भावमजानन्तु मम भूतमहेश्वरम् अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् परं भावमजानन्तु मम भूतमहेश्वरम् वसुदेव सुतं देवं पंचजानुरमर्दनम् देवकी करमानन्दम् कृष्णं वन्दे जगद्गुरुम् कृष्णं वन्दे जगद्गुरुम्
हरे शरणं 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 Hare Sharanam, 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 Hare Sharanam.